अम्ब प्रार्थनां करोति वा? अम्ब
शुक्लां वरदरं विष्णुं सचिवन्नं चतुर्भुजं प्रसन्नवदनं ध्याये सर्वविघ्नोपशान्तये सरस्वते नमस्तुभ्यं वरदे कामरूपिणी विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा गुरुब्रह्मा गुरुविष्णु गुरुदेव महेश्वरः गुरुसाक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः सगणावतु सगणो गुणस्तु सह वीर्यं करवावहै तेजस्वि विमलतु
एकनिमिषम्
सगणावतु सगना भवतु सगनौ पुनर्गुणस्तु सग वीर्यं करवावहै तेजस्वी नामधीमस्तु मा विद्विषावहै ॐ शान्ति शान्ति शान्तिः.
अस्तु ॐ सहना भवतु सहनौ भुनत्तु क्षम्यतां सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै ॐ शान्ति शान्ति शान्तिः. अस्तु अग्रे अत्रापि सम्यक् नास्ति इति चिन्तयामि. एकनिमेषम् जयति भगिनी अग्रिमं करोति वा भगिनि? विष्णु रक्षतनः अस्तु अहं पठामि. कृष्णो रक्षतु नः जगत्त्रयगुरुः कृष्णं नमस्याम्यहं कृष्णेनामरशत्रवो विनिहताः कृष्णाय तुभ्यं नमः कृष्णादेव समुत्थितं जगदिदं कृष्णस्य दासोऽस्म्यहं कृष्णे तिष्ठति सर्वमेतत् अखिलं हे कृष्ण रक्षस्व माम्. अस्तु अग्रे सुभाषितम् अस्ति. जयश्री भगिनी पठितुमिच्छति वा सुभाषितम्?
आं भगिनि. अमन्त्रमक्ष्यरं नास्ति नास्ति मूलमनौषधम् अयोग्यः पुरुषो नास्ति योजकस्तत्र दुर्लभः. एकमेव पठितुम् अमन्त्रमक्षरं नास्ति नास्ति मूलं नौषधम् अयोग्यः पुरुषो नास्ति योजकस्तत्र दुर्लभः.
अस्तु अत्र पदच्छेदं कृत्वा अमन्त्रम् अक्षरं नास्ति अमन्त्रम् अक्षरं नास्ति इत्युक्ते प्रथमम् अहम् एवं करोमि. अमन्त्रम् अक्षरं नास्ति भगिनी भवतीमपि करोमि बहु ध्वनिः अस्ति. धन्यवादः क्षम्यतां भगिनि. अस्तु अमन्त्रम् अक्षरं नास्ति इत्युक्ते अक्षरं प्रति अक्षरं मन्त्रमेव अमन्त्रम् मन्त्रम् इति वदामः चेत् ध्यानं कर्तुं शक्नुमः इत्युक्ते डिवैन् इति वदामः खलु तादृशं संस्कारयुक्तम् अक्षरं सर्वाणि अक्षराणि तादृश अक्षराणि एव एकमपि अक्षरम् असमीचीन अक्षरम् इति नास्ति अमन्त्रम् अक्षरं नास्ति इत्युक्ते सर्वाणि अक्षराणि अमन्त्रयुक्तानि अक्षराणि एव मन्त्रार्हाः एव इत्युक्ते इट् इस् डिवैन् इति अमन्त्रम् अक्षरं नास्ति अक्षरम् इति वदामः चेत् श्रवणेन्द्रियग्राह्यमेव अक्षरं सो दट् इस् द डेफिनेशन् आफ् अक्षरम् नास्ति मूलम् औषधं मूलम् इति वदामः चेत् रूट् इति अर्थ उदाहरणार्थं सस्यम् अस्ति पर्णम् अस्ति अधः मूलम् अस्ति परन्तु सर्वाणि मूलानि औषधमेव औषधार्थम् उपयोगाय भवति एकमपि सस्यम् अनौषधम् इति नास्ति सर्वाणि सस्यानि औषधार्थम् उपयोगं कर्तुं शक्नुमः सो अत्र अस्ति अमन्त्रम् अक्षरं नास्ति अनौषधं मूलं नास्ति इत्युक्ते सर्वाणि सस्यानि केवलं मूलमेव न सर्वाणि सस्यानि औषधार्थम् उपयोगपूर्वम् अस्ति सर्वाणि अक्षराणि अपि उपयोगपूर्वम् अस्ति अयोग्यः पुरुषः नास्ति इत्युक्ते सर्वे पुरुषाः उत्तमाः जनाः एव उत्तमानि कार्याणि कर्तुं ते शक्नुवन्ति इति अयोग्यः अयोग्यः अनुत्तमः पुरुषः इति कोऽपि नास्ति सर्वे उत्तमाः जनाः एव अतः दुर्लभः कः एव दुर्लभः योजकः तत्र दुर्लभः तत्र योजकः एव दुर्लभः योजकः इत्युक्ते कथम् अक्षरम् उपयोगं करणीयं कथं मूलम् उपयोगं करणीयं कथं पुरुषम् उपयोगं करणीयम् इति यः जानाति सः एव योजकः सः एव दुर्लभः ओके अहं प्रथमं संस्कृतेन वदामि अनन्तरं न अवगच्छति चेत् आङ्ग्लभाषायां वदामि अमन्त्रम् इति वदामः चेत् ध्यान अयोग्यं ध्यानार्थम् अयोग्यम् अक्षरम् एव अमन्त्रं तादृश अक्षरं नास्ति एवमेव सर्वाणि मूलानि औषधकर्तुम् उपयोगं कर्तुं शक्नुमः वयं सर्वाणि मूलानि तादृश उपयोगानि एव एवं कर्तुं शक्नुमः पुरुषाः अपि उत्तमाः एव अनुत्तमः पुरुषः इति कोऽपि नास्ति यः उपयोगं कर्तुं शक्नोति सः एव योजकः सः एव दुर्लभः इत्युक्ते यः कोऽपि वयं चिन्तयामः उपयोगाय न भवति इति किमपि मूलं किमपि सस्यं वयं त्यजामः चेत् दोषः अस्माकमेव अस्माकं दोषः एव किमर्थम् इत्युक्ते सस्यानि सर्वाणि उत्तमानि सस्यानि एव वयं न जानीमः कथम् उपयोगं करणीयम् इति सो अतः दोषः अस्माकम् एव इति सुलभतया न लभते दुर्लभः इत्युक्ते सर्वत्र नास्ति दुर्लभः लभः इत्युक्ते लभते मीन्स् प्राप्नोति वयं प्राप्नुमः दुर् प्राप्नुमः इत्युक्ते सुलभतया न प्राप्नुमः दुर् इति सुलभतया न प्राप्नुमः इति सो अत्र वर्णमालायां बहूनि अक्षराणि सन्ति तेषु एकमपि अक्षरं नास्ति यत् मन्त्राय उपयोगः न भवति इति इत्युक्ते सर्वाणि अक्षराणि मन्त्राय उपयोगं भवन्ति सर्वाणि अक्षराणि एवमेव प्रपञ्चे बहु मूलानि सन्ति, तादृशम् एकमपि मूलं नास्ति यत् औषधाय योग्यं न भवति इति. एवमेव प्रपञ्चे बहु जनाः सन्ति, ते सर्वे योग्याः एव, योग्याः उत्तमाः एव. यदि कश्चन योजकः, योजकः कथम् उपयोगं कर्तुं शक्नुमः इति यः जानाति सः एव योजकः. यदि कश्चन योजकः मिलति तर्हि ते सर्वे योग्याः भवितुम् अर्हति. परन्तु तादृशयोजकः एव दुर्लभः इति सुभाषितस्य अर्थः. इदानीं पृच्छन्तु प्रश्नः अस्ति अस्ति चेत्.
योजकः
यूज़र्
Bhagini, it means a person who knows how to use all this is a rare person. Is that what it means?
Correct. So this is the key thing. Yojakah durlabah. Those who don't know how to use an aksharam. For example, there is an aksharam called nga. So I'll say that is a useless aksharam. So that means I am at fault. and there is a weed growing in my house, so I just throw it out. I am at fault. So some people know how to use those weeds also, tadrisham. And then some person I say he is such a useless person, good for nothing. No, he can be used for something. I don't know how to use him in a certain way, so I am at fault. So yojakah samyak asti chet सर्वम् उपयोगं कर्तुं शक्नुमः वयम् इति सुभाषितस्य अर्थः.
अमन्त्रम्
लैक् मन्त्रं मीन्स् ध्यानं कर्तुं योग्यः खलु. देन् इट् बिकम्स् ए डिवैन् अक्षरं. लैक् वेन् वि से ओम्, ओम् इस् जस्ट् अ अक्षरं लैक्. But if we can do dhyanam on it, it becomes a divine aksharam, right? It becomes a mantra.
Is that by Shravanendriya Grahyam aksharam?
Yeah, so that is the definition for an aksharam. I just wrote it, yeah.
Means it is worth listening to and grasping?
No, the aksharam means something that is grasped by our ear, something that is heard is an aksharam.
Our sense organ, the ear.
Sense organ, yeah. Shravanendriya means sense organ. This is just for knowledge, I wrote it here.
Oh, okay. Very nice definition. So, amantram aksharam means there is no aksharam that is not divine.
That is not worthy of dhyanam, that is mantram. Mantram is worthy of dhyanam.
Mm-hmm.
Every aksharam is worthy of dhyanam, mantram, to become a mantram. Mantram means it takes us to a divine level. Mm-hmm. That's what it is. Yeah. You're very complicated, Subhashita.
Mm-hmm.
But very nice.
बहु सुन्दरं भगिनि.
आमाम्
अनौषधं मीन्स् देर् इस् नाट् अ मेडिसिन्.
या सो देर् इस् नथिङ्ग् दट् इस् नाट् मेडिसिनल् दट् डज़न्ट् हेव् मेडिसिनल् प्रापर्टीस्.
अनौषधं मूलम् इस् वाट् इस् इट् रूट्?
मूलम् इस् रूट्. या
देर् इस् नो रूट् दट् इस् नाट् मेडिसिनल्.
या दट् इस् नाट् मेडिसिनल्. We just, so the if there are no yojakas around, that means that is the fault.
And ayogya purusha means one who is not able to use?
No, yogya means good actually, uttamah purusha.
Oh,
okay.
Ayogya purusha means, okay.
Even in the Tamil Bhasha, they say it ayogya, like that.
Okay.
That means he is not a good person. That means not worthy of being used for anything, like useless, something like that. But it generally means appropriate, good, useful, so many meanings.
धन्यवादः
धन्यवादः अस्तु अग्रे गच्छामः कथा अस्ति संस्कारः इति लता भगिनी पठितुमिच्छति वा
आं भगिनि
कश्चन
नृपः चित्रकलायाम् अतीव प्रीतिः तस्य सः कलाकारान् सम्मानयति स्म एकदा कलाकारद्वयम् आगतम् उभयोः अपि राजभवने चित्रं लेखितुम् इच्छा एकः उक्तवान् राजन् अहं कलाकारः महाभारतं चित्रेषु निरूपयितुम् इच्छामि तदर्थं दशवर्षाणि अपेक्षितानि कृपया अवकाशं कल्पयतु इति कश्चन निरूपकः आसीत् चित्रकलायाम् अतीव तस्य चित्रकलायाम् अतीव इच्छा आसीत् सः कलाकारान् उपहारमपि ददाति स्म एकदा द्वयं कलाकारद्वयम् आगतम् उभयोः अपि राजभवने चित्रं ते राजभवने चित्रं लेखितुम् इच्छतः
सम्यक्
एकः उक्तवान् राजन् अहं कलाकारः अहं महाभारतं चित्रं लेखितुम् इच्छामि तदर्थं दशवर्षाणि अपेक्षितानि दशवर्षाणि
आवश्यकानि
दशवर्षाणि आवश्यकानि कृपया अवकाशं ददातु इति उक्तवान्
सम्यक् भगिनि बहु सम्यक्तया उक्तवती सर्वे अवगच्छन्ति खलु नृपः इत्युक्ते
राजा
किङ्ग् अस्तु सो अत्र उभ इति अस्ति चेत् टु इति उभ पुल्लिङ्गपदम् एवं भवति उभयोः अत्र सप्त षष्ठी विभक्ति उभयोः अपि एवं भवति उभाभ्याम् उभयोः उभयोः केवलं ज्ञानार्थं लिखितवती अत्र चित्रेषु निरूपयितुम् इत्युक्ते टु शो द महाभारतं थ्रू अ पिक्चर् अस्तु भगिनि अग्रे निर्मला भगिनि
अपरः उक्तवान् अहं सामान्यः कलाकारः चित्रे किमपि निरूपयितुम् इच्छामि चित्रस्य विषयः न निश्चितः समाप्ते अवधिः अपि न निश्चितः भवान् अवकाशं कल्पयति चेत् चित्रं लिखामि इति राजा उभयोः अपि अनुमतिं दत्तवान् द्वितीयः पुनः उक्तवान् चित्रलेखनस्य मये कोऽपि न पश्येत् एषः मम नियमः इति राजा तदापि अङ्गीकृतवान् I will not be able to say it in Sanskrit, Bhagini.
No, you say it in English, Bhagini. No problem.
Aparaha is the second one, second chitkara. He said he is an ordinary kalakar. So, he would like to nirupayatum is show the pictures, no?
Yeah, he likes to draw something.
Draw something. Chitrasya vishayaha na nischita. You need not worry about what the content of the film.
So he is saying about his own picture.
Yeah, his own picture. In the end, he can decide, is it? Samapte avadi apina nischita. Oh, no, no. Yeah, don't worry about the time I will take to complete it.
Yeah, because I haven't decided yet. Apina nischita. Chitrasya vishayaha na nischita. I don't know what I'm going to do. I don't know how long I'm going to take it like that.
Bhavan avakasham kalpayati che chitram likami. If you give me the chance, I will do the picture. Raja Udhayavati Anumati. He gave the permission for both of them. The second one said again, chitra lekana samaye kopi na pashyate.
Pashyet.
Nobody should see the pictures while he is doing it.
Correct. Right.
Eshaha mama niyama. That is my rule.
Correct.
So Raju agrees for their request.
Yeah. Samyak. Astu. Dhanyavada bhagini. Avadihi itukte the period. Samaptehe period. How long I need. He says, right? दशवर्षाणि अपेक्षितानि इति प्रथमः उक्तवान् द्वितीयः वदति अहं न जानामि समाप्तेः अवधिः न निश्चितः प्रायः पञ्च प्रायः दश न जानामि इति पश्येत् इति विधिलिङ् लकारः इति अस्ति अग्रे पश्यामः सागरी भगिनि अग्रे
कृपया दर्शयतु वेर् ऐ मस्ट् रीड् फ्रोम् द टाप् इस् इट्
फ्रोम् द टाप्
एकः प्रकोष्ठः परस्परम् अभिमुखं केन् यु हेल्प् मी वित् दट् वर्ड् भगिनि भित्तिद्वयम् अस्ति एकस्यां भित्तौ महाभारतचित्रकारः चित्रं लिखति अपरत्र अन्यः चित्रं लिखति मध्ये जवनिका अस्ति महाभारतस्य चित्रं सर्वे पश्यन्ति प्रशंसां कुर्वन्ति अपरस्य चित्रस्य दर्शनं निषिद्धं सः किं करोति इति कोऽपि न जानाति एवं दशवर्षाणि अतीतानि प्रकोष्ठः इत्युक्ते रूम् परस्परं I did not understand that sentence, Vagini. Parasparam.
Anya kopi vaktum ichyati va? Parasparam abhibukam bitti dvayam asti.
Facing each other, there were two walls.
There were two walls.
Two walls facing each other. Parasparam abhimukam facing each
other. Facing each other. Parasparam abhimukam bitti dvayam asti. Idani katini bagini.
एकः भित्तौ उपरि महाभारतचित्रं
लिखति
एकः जवनिका अस्ति अतः द्वितीय चित्रकारस्य चित्रं कोऽपि न द्रष्टुं शक्यते महाभारतचित्रं सर्वेषां द्रष्टुं प्रशंसाम् अपि कुर्वन्ति. दशवर्षाणि अतीतानि.
दशवर्षाणि अतीतानि.
चित्रकारद्वयं चित्रं लिखन्ति लिखन्तौ समयः बीतः दशवर्षान् बीतः.
अवगच्छन्ति वा सर्वे? सो अत्र द्वयं परस्परम् अभिमुखं फेसिङ्ग् इच् अदर् अस्ति, मध्ये लवणिका एवम् अस्ति. सर्वे महाभारतस्य चित्रं पश्यन्ति, आहा बहु सम्यक् इति प्रशंसां कुर्वन्ति. अपरस्य चित्रं दर्शनं निषिद्धम् इत्युक्ते मा पश्यतु इति नियमः अस्ति. दशवर्षाणि अतीतम् अस्तु. सविता भगिनी अग्रे.
आं भगिनि, उद्घाटनस्य दिनम् आगतम्. राजा चित्रदर्शनार्थम् आगतः. प्रथमं सः महाभारतस्य चित्रं दृष्टवान्. अद्भुता कला, राजा अतीव सन्तुष्टः. द्वितीयचित्रकारः राजसमीपम् आगतवान्. उक्तवान् च, महाराज मम चित्रं सिद्धम्, इमां जवनिकाम् अपसारयतु, चित्रं पश्यतु इति. उद्घाटनदिनम् आगतवान्. राजा चित्रं चित्रदर्शनार्थं प्रकोष्ठे आगतः. सः राजा महाभारतचित्रं प्रथमं दृष्टवान्. अद्भुतचित्रम् अस्ति. राजा अतीव सन्तुष्टः अभवत्. द्वितीयचित्रकारः राजा समीपे आगतवान् च उक्तवान्, महाराज मम चित्रमपि भवतः दृष्टवान् इति. तौ स जवनिकाम् अपसारयतु, पश्यतु अपि द्वितीयचित्रकारः राजाभ्यां
राजानं उक्तवान् भवान् अपि पश्यतु. अपसार इत्युक्ते
यु ड्रा द कर्टन्स्,
रिमूव् द कर्ट, अपसारयतु, निष्कासयतु इति. निष्कासयतु, चित्रं पश्यतु इति. धन्यवादः भगिनि.
नमस्ते भगिनि.
भगिनि स्वागतं. ऊर्मिला भगिनी अग्रिमम्
अहं वदामि. ओके. नृपः तथा कारितवान्. अत्याश्चर्यं. द्वितीयः अपि महाभारतस्य एव चित्रं लिखितवान् अस्ति. उभयोः अपि चित्रयोः भेदः एव न दृश्यते, किन्तु द्वितीयस्य चित्रम् अधिकं शोभते. जीवकला अधिकतया दृश्यते. नृपः जवनिकां निष्कासितवान्. सः बहवः आश्चर्यम् अनुभवितवान्. द्वितीय अपि कलाकार अपि महाभारतस्य चित्रं लिखितवान्. उभयो अपि चित्रो भेदः नास्ति, किन्तु द्वितीयस्य चित्रम् अधिकं शोभते. जीवकला अधिकतया दृश्यते, लैव्ली दृश्यते, राइट? अधिकतया दृश्यते.
शोभते इत्युक्ते प्रकाशते,
शैन्
प्रकाशते. अस्तु, सर्वे अवगच्छन्ति खलु? नो चेत् पश्यतु, पृच्छतु. अस्तु, उषा भगिनी.
आश्चर्यचकितः सः चित्रकारं पृष्टवान्, अत्र किं कारणम्?
चित्रलेखनसमये भवान् किं कृतवान् इति। राजन्, अहं चित्रमेव न लिखितवान् इति उक्तवान् चित्रकारः। तर्हि किम् एतत् इति आश्चर्येण पृष्टवान् राजा। अन्यचित्रकारस्य चित्रस्य प्रतिबिम्बम्। अहं दशवर्षाणि निरन्तरं भित्तेः संस्कारं कृतवान्। तेन भित्तिः दर्पणः इव जाता। तत्र चित्रं प्रतिफलितम् अस्ति तावदेव इति उक्तवान् चित्रकारः।
आं भगिनी वदतु। अस्तु, आश्चर्यचकितः चित्रकारः
पृष्टवान्, आश्चर्यचकितः राजा चित्रकारः, चित्रलेखनसमये भवान् किं कृतवान् इति। किं कारणं
भवान् किं कृतवान् चित्रलेखनसमये, किं कृतवान् राजा। सो अतः चित्रकारः वदति, अहं चित्रमेव न लिखितवान् इति।
चित्रमेव न
लिखितवान् इति सः वदति। राजा वदति, हा तर्हि किम् एतत् चित्रमेव खलु। भवान् वदति चित्रं न लिखितवान् इति, परन्तु अत्र चित्रं दृश्यते, अहं द्रष्टुं शक्नोमि, किम् एतत् इति। अतः चित्रकारः वदति, अन्यचित्रिम्बं केवलं प्रतिबिम्बमेव, दिस् इस् अ रिफ्लेक्षन् आफ् दि अदर् चित्रम्। अन्यचित्रकारस्य चित्रस्य प्रतिबिम्बमेव एतत्।
So you're saying it's a reflection? Drawing?
Pratibimbam, just a reflection.
So it is not really, there was no picture, but the reflection.
Saha vadati, aham chitram na likitavan. Anya chitrasya pratibimbam eva etat. अहं दशवर्षाणि किं कृतवान् इत्युक्ते निरन्तरं सर्वदा संस्कारं कृतवान्। संस्कारम् इत्युक्ते संस्कारम् इत्युक्ते अन्य कोऽपि वक्तुं संस्कारं मीन्स् यु आर् डूयिङ्ग् सम् रिचुवल् खलु।
Oh, I see. It's here, it's
the
ritual. Okay.
Yeah. So he was doing some ritual to the wall.
Vittehe is Shashti Vibhakti.
Vittehe sanskaram krutavan. Tena vittihi. So what happened to the vitti? So I was doing some rituals to the vitti. So the vitti became like darpanam.
Okay.
Because of the sanskar. Savita Bhagini, vadatu.
Dharpana meaning avasthane, mirror.
Mirror. Dharpana. Tena bhittihi dharpanaha iva jata. Bhittihi strilinga ataha jata. Bhittihi dharpanaha iva abhavat. Aham chitram na likitavan. परन्तु भित्तिं दर्पणः इव कृतवान्। तत्र चित्रं प्रतिफलितम् अस्ति तावदेव। प्रतिफलितम् इत्युक्ते रिसल्ट् कान्सिक्वेन्स् इति। सो उदाहरणार्थं सो दे गेव् दिस् अस्ति उदाहरणं। So this is a boomerang iti vadamaha. Boomerang iti, so we throw it out, it comes back to you. Udaharanartham, so that is what they are saying over here. So I did something nice to the bitti. So the bitti did something nice back to me iti. Vayam kimapi uttamakaryam kurmaha chet anyasya krite. Kurmaha chet tat karyam अस्माकं कृते अपि आगच्छति इति। लैक् अ कर्म, गुड् कर्म, इट् कम्स् बेक् टु अस्। सो प्रतिफलं, तत्र प्रतिफलम् अस्ति तावदेव। अहं किमपि न कृतवान् इति. गोपिका भगिनी अग्रिमम् अन्तिम.
आं भगिनि, राजा तुष्टः अभवत्, उभाभ्याम् अपि पारितोषिकं दत्तवान्, अस्माकं मनः अपि भित्तिः इव, तस्य संस्कारः आवश्यकः, तदा तत्र महात्मनाम् आदर्शाः प्रतिफलिताः भवन्ति. राजा वदामि राजा तुष्टः अभवत् इति उभाभ्यामपि परितोषिकं दत्तवान्. परितोषिकम् इत्युक्ते किं भगिनि?
पारितोषिकम् इत्युक्ते
पारितोषिकं
प्रेसेण्ट्
उपहारं दत्तवान्. तत्र अस्माकं मनः अपि भित्तिः इव इत्यपि सः उक्तवान्. तस्य संस्कारः अपि आवश्यकः, तदा तत्र महात्मनां लक्षणाः प्रतिफलिताः भवन्ति इति. अस्माकं तत्र महात्मानां लक्षणाः प्रतिफलिताः यथा भवती उक्तवती तत्र तदा यत् वयं कुर्मः तत् प्रत्यागच्छति, तत् प्रतिफलिताः भवन्ति इति सः उक्तवान्.
सो अत्र कथायाः सारांशः एतत् एव. कथायाः नीतिः इति अस्ति खलु. सो अस्माकं मनः अपि भित्तिः इव, अस्माकं मनसि दुर्बुद्धिं स्थापयामः चेत् दुर्बुद्धि एव बहिः आगच्छति, प्रतिफलित कान्सिक्वेन्स्. तादृश आदर्शः एव भवति अस्माक. सो अन्यजनाः अस्मान् दृष्ट्वा दुर्बुद्धिं द्रष्टुं शक्नुवन्ति, परन्तु अस्माकं मनसि उत्तम चिन्तनं स्थापयामः चेत् बहिः उत्तम कार्यम् आगच्छति इति. प्रतिफलिताः भवन्ति यत् मनसि स्थापयामः भित्तिः इव, तदेव बहिः अपि आगच्छति इति. सम्यक् उक्तवती भगिनि.
So what you are saying is संस्कारः here is a ritual. So what I didn't understand is what is happening there. There are two painters. One painter imagined and he painted the wall. The other guy did not do anything, but he was doing some kind of a ritual to the wall.
Yeah, I think he was polishing the wall or something like that. Samskara. Mm-hmm. So if you look at the word samskara, let me see. Kim asti iti.
It's more to do with the act maybe, Bhagini. Samskara is some action done there.
Yeah.
Yeah, but what is the action he did? That is not clear in the story.
That is polishing the wall so that it reflects, maybe.
Purity, itepi.
It's like a ceremony, Bhagini. It's a ritual. This is what I think. Okay, it's a ritual, refining, polishing. So many meanings. Samskara.
Some action also, yeah.
So they are doing something to the wall. Something to the wall.
Creating impressions. See, samskara is also impression.
Yeah, but what
the other guy's painting on those 10 years?
He's not painting, Bhagini. That's the thing. He's not painting.
But he's not letting anybody see what he's doing.
Yeah, but he's just polishing the wall. That's all.
Yeah, but I don't know. Something is missing here.
So we cannot take it literally. So they're just saying what you put in, you will get out. So it is just a symbolic thing. He's not really making the wall like a mirror.
So what it appears to me is that he polished the wall so much that whoever saw into that wall would see a reflection of whatever their thoughts are.
Yes, something like that. But
the Mahabharata story, whatever story he is thinking of will be reflected on that wall.
I think that would have been a better thing, because when the Raja looked, he did not see the Raja, right? He saw the Mahabharata. So the wall, you know, it did not reflect what was there in front of the wall, but it showed the Mahabharata, which is not possible. So I'm just saying it is just a mental picture to show the last Niti. Okay, the Niti is the important one. So
mental image of what the Raja saw on the other side of the wall.
Because he said, Tarhi kim etat rashanena prishnavan Raja. He said, aham chitram eva na likhitavan. I did not just write a picture. Isn't that what it means? Aham
Right. So before he says kintu dvitiyasya dvitiyah api mahabharatasya eva chitram likhitavan asti ubayoh api. So both of them showed the Mahabharata picture only. Hmm. but the second one was more shiny. So when he asked why it is so shiny, he said, actually I did not even write, it's just a reflection. My wall became like a mirror.
Yeah, so he's saying Anya Chitrakarasya Chitrasya Pratibimbam. Means this is a reflection of the other guy's painting.
Other guy's picture, yes.
Aham Dasha Varshani Nirantaram Bhittehe Samskaram Pratavan. So that is the care of this, Samskaram.
Don't take it literally, okay? So if you take the word literally, Samskaram means in our Hindu religion, sanskara means some sort of a religious ritual, but that's not what this means. Okay, here it means he was polishing the bitti. That means it's a symbolic way, Bhagini. So he's not really doing that. It's a symbolic way of we have to polish our mind. We have to clean up our mind. That's what it is.
Okay.
Don't take it so literally. It's just a story to show that whatever you put in, you will see it like that. It is the reflection. This is the key word, pratipalitam asti. Pratipalitam, the consequence of what you do, you will get. So the same way, manaha api bhittihi eva. This is the key sentence. Manaha api bhittihi eva. Tasya sanskaraha avashyakaha. Sanskaraha means to take care of it, to look at it, clean it up like that. Sanskaraha avashyakaha. Tatra tada. When we do sanskaraha, yada kurmaha tada. Tatra mahatmanam adashaha. Pratipalitah bhavanti. Adarshaha, lakshanaha, all those things. So, idealism, ideal.
Could adarshaha mean advice?
No, it means idealness. Like Mahatma Gandhi, you know, he lived an ideal life. So, that type of ideology. Ideology, that type of lakshanaha, mahatmanam lakshanaha pratipalitaha bhavan. That means we will be like a mahatma, like that.
Okay.
Katayaha nama kim bhagini?
Bhavati.
Aham vilambena.
Sanskaraha.
Sanskaraha.
Oh, astu.
Astu.
The story.
Yeah. अस्तु अग्रे गच्छामः. सो अत्र वयं लङ्लकाररूपे स्मः. वयं लङ्लकार इत्युक्ते भूतकालं सूचयति. लकारः साक्षात् लकारः, अतः नवरूपाणि भवन्ति. पुल्लिङ्ग स्त्रीलिङ्गभेदः नास्ति, परन्तु पुरुषभेदः भवति. उत्तमपुरुषः, मध्यमपुरुषः, रूपाणि एवम् अस्ति, पठत् अपठत्, पठति तः स्वीकुर्मः पठति, अपठत् अपठताम् अपठन् अपठः अपठतम् अपठत, अनन्तरम् अपटं भवति, अपटम् अपटाव अपटाम इति परस्मैपदी धातु. आत्मनेपदी अ एव, परन्तु पठत् इति हलन्तपदं नास्ति, अ अकारान्तपदं भवति. अलभत, अलभे ताम्, अत्रापि ताम् इत्र पुल्लि परस्मैपदी अपि ताम्, आत्मनेपदी अपि ताम्, परन्तु आत्मनेपदी लभे ताम् ए भवति मध्ये. परस्मैपदी अपठन्, आत्मनेपदी अप अलभन्त, हलन्त नास्ति अत्र. अपटः अपटतम् अपटत, आत्मनेपदी अलभताः, अलभे थाम् महाप्राण लभध्वम् लभध्वम्. अग्रे अपटम् अपटाव अपठाम, लोट्लकारः इव, लोट्लकार किं भवति, पटानि पटाव पटाम, परन्तु अत्र अपटम् अपटाव अपठाम. आत्मनेपदि अलभे ए भवति, वन्दे वयं वदामः खलु, वन्दे संस्कृतमातरं वन्दे, परन्तु अत्र अलभे अवन्दे इति भवति. अलभा वहि अलभा महि, एतत् अस्ति लक्षणं आत्मनेपदेः, लक्षणम् एवं भवति. अस्तु, अत्र अत्र वयं स्थगितवन्तः गतवर्गे, इदानीम् आरम्भं कुर्मः वा? गोपिका भगिनी, भवती प्रथमं करोति वा? कुत्रापि लिखामि अहम्. न्या धातु, सो अत्र उत्तमपुरुषः इति अस्ति. उत्तमपुरुषः कथं भवति?
अत्र तस्य रूपाणि एकवारम् उदाहरणानि ददाति.
सो अहं लिखामि किमर्थमिति, उपरि अधः इति अस्तु, अहम् अस्तु एवम् एवं करोमि. अजानाम् अजानाव अजानाम.
अस्तु, अन्यत् करोमि.
सो अत्र अजानाम् अजानाम् अजानाव अजानाम् इति अस्ति खलु, भवती प्रथमपुरुष उत्तमपुरुष अपि करोति वा? प्रथमपुरुष उत्तमपुरुष मध्यमपुरुष इति अस्ति, उत्तमपुरुषः अत्र अस्ति, प्रथमपुरुषः मध्यमपुरुषः करोतु.
अजानातां
सम्यक्. अजानन् इति भवति,
अजानन् अजानन्
अजानात् अजानात् अजानाताम् अजानताम्
अजानताम्.
सो अत्रापि अजानत् अजानत् कथं डिरैव् कुर्मः इत्युक्ते, प्रथमं जानाति इति लट्लकारं भवति, जानाति. सो अत्र प्रथमम् अ योजयतु, अजा, सो अत्र जानाति विल् बिकम् जानत्. अन्य उदाहरणं वदामि. पठति
भगिनि जटिलः अस्ति भगिनि.
आम् 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 आं भगिनि. सो उदाहरण न्यादात् किञ्चित् कठिनं भगिनि, परन्तु पठति इति अस्ति चेत् लट्लकारः पठति. इतः आरम्भं कुर्मः. सो अ पठ, ति त्यजामः, अपठत् इति भवति. सो सो दिस् इस् द फार्मुला इव स्टेप्स् सोपान. आम् न न मुद्रणदोषः भगिनि.
धन्यवादः
इति अहं चिन्तयामि. अजानम् अजानाव अजानाम्, अपटम् अपटाव अपटाम, अजानम् अजानाव अजानाम. किञ्चित् कठिनम् अजानम् इति कठिनम् ते अस्तु वा. सो अत्र अपठत् अपठताम् अपठन् इति भवति. मध्यमपुरुष कथं भवति?
अपटः अपठत
अपठत. अस्तु सम्यक् वा? अपठत.
आं भगिनि क्षम्यतां.
न न न न न अग्रे अपटम् अपटाव अपटाम एवम् एवम् अस्ति. अस्तु आम् अगच्छ.
प्रश्नः अस्ति.
स्वागतं भगिनि इदानीमेव. नमः. किं भगिनि पुनः पृच्छतु. जानाति नास्ति नास्ति. जानातितः आरभ्य अजानत् एव भवति. अजानत् अजानताम् अजानन् अजानः अजानतम् अजानत अजानम् एव भवति. अजानां न अजानम् अजानम्
जानाति भगिनि इट् कन्वर्ट्स् टु अजानम् एण्ड् नाट् अजानाम्.
अत्र पश्यामः अष्टाध्यायी मध्ये पश्यामः. धातुपाठः okay I will say to know. Janati iti ubhayapadi asti parantu vayam parasmayi padim pashyamah idane. Oh, you're right, Bhagini. Ajanateva. Etat samyakeva, Bhagini. Ajanam iti aham dosham iti uktavati dosham nasti. Janati iti... Dhanyavada, Bhagini. Janati iti asti che ajanateva. Parantu binna binna rupani atrapashyantu. अजानीताम् आम् अहं नोट्स् लिखितवती. अहं न दृष्टवती अत्र. न्यादातु इस् अ विशेषधातु. इट्स् लैक् द कृ धातु. द कृ धातु अपि विशेषधातु. साधारणरूपं नास्ति. उदाहरणं लिखति पठति तादृशरूपं न भवति. परन्तु अत्र आत्मनेपदी अस्ति चेत् अपि भिन्न भिन्नरूपं. परस्मैपदी अजानात् अजानीताम् अजानन् अजानाः अजानीतम् अजानीत अजानाम् अजानीव अजानीम किञ्चित् भिन्न भिन्नरूपाणि एव अत्र ततोपि भिन्न भिन्नरूपम् अजानीताः अजानाथाम् अजानीध्वम् अजानि अजानीवहि अजानीमहि भिन्नरूपम्
आत्मनेपद्यं जानीते इति अस्ति खलु भगिनि जानीते
न
जानाति इति
जानीत
न मूलरूपः भगिनि
जानीते न जाने जानीवहि जाने Yeah, this is this set of one. I missed this one. Astu.
Lakar is something different.
Yeah.
Atmanepadi itself is tough, Bhagini.
Yeah. Atmanepadi is tough. So we have certain difficult ones, Bhagini. Like Nya is different. Kru is also very different. Kru. So if we look at Kru.
Bhagini, will we be able to recollect this thing?
You have to do it again and again, Bhagini, because I forget too, you know, because I forgot the Nyadhatu. So we have to do it again. So Atra, Karoti, Kurute, Etatapi, Ubhayapadi, Dhatu. So Akarot, Karoti is Asti, but very similar. Akarot, Karoti. So if we take that sopanam karoti akarot akurutam so atra ku bhavati karoho kuruhu akaravam bhinna bhinna rupani akurvi very very different astu agre gam dat karoti va bhagini
am bhagini आ प्लस् गम् आगच्छति इति वा
गच्छति सो विकम् अगच्छत्
अगच्छत् अगच्छताम् अगच्छन् प्रथमपुरुषः अन्यदपि अगच्छः अगच्छतम् अगच्छत अगच्छम् अगच्छाव अगच्छाम
अगच्छाव अगच्छाम
एतत् सुलभः अस्ति भगिनि पूर्वमेव
ज्ञादातु डिफ्रेण्ट् एव भगिनि
अत्र आ प्लस् गम् इति अस्ति खलु भगिनि अत्र कथं
भवति केवलं गच्छति इति अस्ति चेत् अगच्छत् परन्तु आ इति अस्ति अतः आ योजनीयं सो अ प्लस् आ भवति आगच्छत् आगच्छतम् आगच्छन्
आगच्छन्
Gatcha means to go, yeah.
Gatchat means she went, or she went. And Gatchat
means she or he came. Came, yeah. So, atra a gatchan iti asti kalu, a bhavati.
Tarhi punaha vadami.
Vadat.
A gatchat, a gatchatam, a gatchan, a gatchaha, a gatchatam, a gatchat. आगच्छम् आगच्छाव आगच्छाम
सम्यक् अस्तु अम्ब वदति वा पत् दातु सो अत्र पतति तः आरम्भं कुर्मः वयं पतति
अपतत्
सम्यक् अपतत्
अपततम्
अपतन् प्रथममस्ति अपतत् अपततम् अपतन् अनन्तरं अपतत उत्तमम् अग्रे पतम् अपतम् पताव उत्तमम् अपताम सम्यक् अस्तु एतत् अपि सुलभः एव अस्तु अग्रे किम् अस्ति दृष्टातु पश्यति सः आरम्भं कुर्मः पश्यति अस्तु अग्रे जयश्री भगिनी धन्यवादः अम्ब जयश्री भगिनी
आं भगिनि प्रथमपुरुष एकवचन अपश्यत् द्विवचन अपश्यताम् अपश्यन् बहुवचन अपश्यत् मध्यमपुरुष अपश्यः अपश्यतम् अपश्यथ उत्तमपुरुष अपश्यम् अपश्याव अपश्याम
अस्तु धन्यवादः
Bhagini, I just wanted to mention something. Sometime back you had circulated somebody had sent the Kendriya Madhyamika Shiksha Parishad conjugations and that has been very helpful. I wonder if it will be helpful for others also. Because I'm following that when you're asking me all these questions.
Oh.
And it really helps me to look at Parasmaipadi and Atmanaipadi in on the same page.
Oh.
What book is this?
Can you just resend it, Bhagini? Because it's good to look at it again.
Yeah, sure. Somebody had sent it sometime back. It's in the WhatsApp group. But I'll look for it and send it.
Yeah, I think I had sent it or maybe somebody else. I'm not sure. Yeah. Good. Yeah. Dhanyavada. Thank you. Can you just resend it? It'll be useful for everybody. Thank you, Ma.
Yeah, will do. Yeah, certainly.
Okay. Astu. So, Agre, Drish Dhatu, Pashy, Abhavat, Tat Abhavat, Astu. Brahm Dhatu, Brahm Api, साधारण धातु इव ब्रह्म सो अत्र भुवादिगण इति अस्ति चेत् साधारणधातु भुवादिगण कस्य पर्याय लता भगिनि
आं भगिनि ब्रह्म धातु अब्रह्मत् प्रथमपुरुष अब्रह्मत् अब्रह्मताम्
अब्रह्मन्
मध्यमपुरुष अब्रह्मः अब्रह्मतम् अब्रह्मत उत्तमपुरुष अब्रह्मम् अब्रह्माव अब्रह्माम
अब्रह्मम् सम्यक् वा इति पश्यामः धन्यवादः भगिनि सो अत्र अपि किञ्चित् भिन्नधातु इति चिन्तयामि पश्यामः विदिलिङ्ग् सो अब्रह्मत् इति सम्यक् एव परन्तु अन्यरूपमपि अस्ति अभ्रमत् अभ्रमताम् अभ्रमन् एतत् सम्यक् परन्तु अभ्रम्यत् अपि अस्ति भ्रम्यत् अभ्रम्यताम् अभ्रम्यन् अपि अपि अस्ति सो अत्र नोट्स् मध्ये लिखितवती अतः एव दर्शयामि अस्तु अग्रे स्मृदातु स्मरति इति अस्ति सो कथं कथं जानीमः वयं साधारणधातु वा अन्य किमपि अस्ति वा इति सो अत्र पश्यामः स्मृ भुवादिगण इति अस्ति चेत् साधारणधातु सि भुवादिगण इति अस्ति सो अतः अस्मरतम् एवं भवति अस्मरत् अस्मरत् इति भवति अस्तु अग्रे निर्मला भगिनि आम् आम् स्मरतीतः आरम्भं कुर्मः स्मरति
मध्यमपुरुषः अस्मरः अस्मरतम् अस्मरत उत्तमपुरुषः अस्मरम् अस्मराव् अस्मराम
सम्यक् सो अत्र गै धातु गायति इति लट्लकार गायति सागरि भगिनि
भगिनि अगायत् अगायताम् अगायन् अगायः अगायतम् अगायत अगायम् अगायव अगायम्
अगायाव अगायाम
अगायाव अगायाम
अस्तु प्रच् प्रच् धातु प्रच् भवति इति भवति सन्ध्या भगिनि कृपया
अपृच्छत् अपृच्छन् अपृच्छः अपृच्छतम् अपृच्छत् अपृच्छम् अपृच्छाव अपृच्छाम
धन्यवादः भगिनि उत्तमम् सर्वे अवगच्छन्ति खलु
आं भगिनि
अस्तु अग्रे सविता भगिनि
आं भगिनि
सो अत्र शृणु इति अस्ति अतः किञ्चित् भिन्नरूपाणि अहं दर्शयामि कृपया
एकनिमिशृणु
शृणोति इति अस्ति खलु अशृणोत् इति भवति परन्तु अहं दर्शयामि शृणोति नास्ति या बट् ऐ एम् नाट् गेटिङ्ग् इट्
श्रुता शृणोति
नास्ति सो ऐ एम् गोयिङ्ग् टु मेक् हियर् इति श्रु ओ श्रु एवं लेखनीयम् शृणोति एकवारं दृष्ट्वा गच्छामः अशृणोत् शृणोति इति अस्ति खलु
परस्मैपदी अशृणुतम्
सो अत्र शृणोति इति अस्ति. सो अतः आरम्भे अ योजयामः. अशृणोत् इति सो अत्र प्रथमपुरुष आरम्भं करोतु भगिनि. सविता भगिनि.
आं भगिनि. अशृणोति
अशृणोत्
अशृणोत् अशृणोतः
अशृणोत् अशृणोताम्
अशृणोत
न अशृणोत न
अशृणोतम्
शृण्वन् भवति. कथं जानीमः भिन्नरूपम् अस्ति. शृणोति शृणुमः इति अस्ति खलु. शृणोति शृणुतः शृण्वन्ति इति अस्ति खलु. लट्लकारे कथं भवति. शृण्वन्ति खलु. शृणोति शृणुतः शृण्वन्ति. सम्यक् वा? शृण्वन्ति. सो अतः अत्रापि शृण्वन् भवति. शृणोति शृणुतः शृण्वन्ति इति अस्ति खलु. सो इट् विल् बि अशृण्वन्. सो वी हाव् टु टेक् इट् फ्रम् द लट्लकार रूपं. लट्लकाररूपं कथम् अस्ति इति दृष्ट्वा लेखनीय. दिस् इस् अ डिफिकल्ट् वन् आल्सो. लङ्लकार शृणु. सो लङ्लकार अत्र पश्यतु. शृणोः शृणुः न शृणोः. परन्तु शृणुतं शृणुतः अशृणुतम् अशृणुतः
अशृणोः अशृणुतम् अशृणुत अशृणवम् अशृणुव अशृणुम.
भिन्न रूपमेव
भगिनि. नो चान्स् आफ़् रिमेम्बरिङ्ग् दिस् भगिनि.
Very, yeah, it is difficult. I'm not saying it is not, but you know what to do. This is part of it, right? Ashrunutam evam asti astu. Ashrunot ashrunutam
ashrunvan.
So atra ashrunoho ashrunoho
ashrunutam
अग्रे अशृणोत् प्रथमम्. ओके प्रथमपुरुष अशृणोत् अशृणुताम् अशृण्वन् अशृण्वन्
अशृण्वन्
अशृण्वन् इति भवति. अशृणोः अशृणुतम्
अशृणुत.
ओके पुनः पश्यामि. अशृणुत अग्रे अशृणवम् अशृणुव अशृणुम
अशृणुव अशृणुम
अशृणवम् अशृणुव अशृणुम एवं भवति. अशृणुव अशृणुम
कथं जानीमः सम्यक्
न जानीमः भगिनि. वि डोण्ट् नो यु नो. सो वि हाव् टु लुक् वि हाव् टु लुक्.
धन्यवादः
भगिनि.
आं भगिनि.
इफ् वि फोगेट् शृणोत् इस् इट् ओके टु से शृणोति स्म?
या आर् श्रुतवान् सम्यक्. सो दट् इस् वै श्रुतवान् श्रुतवती इस् मोर् पापुलर् देन् द लङ्लकार. निश्चयेन भगिनि. But if you see Samskrita Bharati dvara patamaha chet tavatu pratyaya, like srutavan, srutavati, simpler, okay, very simpler. But if you look at the traditional the grammarian, they would prefer langlakara. Yeah. They prefer the langlakara because, you know, we have madhyama purusha, uttama purusha, paranto atra, you know, tadrasham nasti. I can say aham gatavati, bhavati also gatavati. So it could be confusing. Anyway. Asto. Kat dhatu is a simpler dhatu. Urmila bhagini, vaktam ichchativa?
Akathayat. अकथयताम् अकथयन् अकथयम् अकथयाव अकथयाम.
अस्तु, सम्यक् इति चिन्तयामि. परन्तु इफ् यु वाण्ट् टु चेक् कत् कथयति समान.
एतत् भ्वादिगणः वा भगिनि? कत्
चुरादिगण कथं जानीमः? चुरादिगण य आगच्छति खल, कथय, कथयति, चोरयति, पूजयति, एतादृशपदानि चुरादिगणे भवति.
तत्रापि समानरूपाणि एव भवन्ति वा?
चोर् इति भवति, चुर् दातु चोरयति इति भवति. सो वि केनाट् से एव्रिथिङ्ग् विल् बि द सेम् पेटर्न् इति अनुमानं कर्तुं न शक्नुमः भगिनि.
अस्तु,
अग्रे सुलभः भवति स्म दातु. अस्तु अग्रे रमु. अस्तु, सो अत्र परस्मैपदि धातु अभवत्. इदानीम् आत्मनेपदि धातु रमु इति धातु, रमेताम्. ओ रमेताम्
मध्यमते.
सो अत्र प्रथमपुरुषं पश्यामः. सेवन्त सेव् धातु कथं भवति? उषा भगिनि, सो अत्र वि विल् स्टार्ट् वित् सेवते. सेवते, सेवेते, न सेवन्ते, दिस् इस् द लट्लकार. सेवते, सेवन्ते, सेवते, सेवेते, सेवन्ते, दिस् इस् लट्लकार. इतः आरभ्य अ, ओ सोरि, से अ, सेवत, इट् विल् बिकम् सेवत. अस्तु, अहं दर्शयामि, अहं दर्शयामि, एकनिमेष. असेवत, असेवेताम्, असेवन्त, मध्यमपुरुष असेवताः. अत्र अचलः इति, परन्तु अत्र आह भवति, असेवताः, महाप्राण भवति, असेवताः, असेवेताम्, असेवद्वम्.
So that Ram will be also
what? Asevehe, asevavahi, asevamahi. So atra, this is the basic one. Lab dhatu, sev dhatu, vand dhatu. So this is like pat dhatu. Very simple forms, very repetitive forms. So atra, sev iti asti chet. असेवत, असेवेताम् असेवन्त मध्यमपुरुष कथं भवति असेवथाः असेवेथाम् असेवद्वम् असेवे असेवावहि असेवामहि अस्तु रमु करोति वा पुनः सेव् एव करोति वा
ओके लेट् मी डू सेव् एण्ड् रमु देन्
असेवेताम्
असेवन्त असेवे मध्यपुरुषः असेवेथाम् असेवेथाम् असेवध्वम् उत्तम पुरुष असेवे असेवावहि असेवामहि
सेवावहि सेवामहि अस्तु
सो द रम विल बी मध्यम पुरुष अरमेथाः
अरमेथाः सम्यक्
अरमेथाम्
ऐ थिङ्क् रमध्वम् एव
भगिनी रमु धातु अस्ति वा रम् धातु अस्ति
रम् रम् परन्तु सो अत्र पश्यन्तु भगिनि रमु इति अस्ति रमु परन्तु सि ओरिजिनलि इट् यूस् टु बि रमु Now they change it to Ram.
Oh.
Yeah.
Okay. So, Ramati, Ramiti.
Aramadva.
Aramathaha, Aramitham, Aramadvam.
Madhya eva e bhavati.
Arami.
Aramavahi, Aramamahi. Bhavati karo.
Aramadvam. That is the Madhyam Purusha. Aramitham and Aramadvam.
Ramadvam. Astu. Astu. So, idanim, Iksh dhatu. Gopika bhagini karoti va Iksh. Iksh iti a yoga I sadhanataya e eva bhavati parantu lang lakare I bhavati. I karaha bhavati.
आं भगिनि
ऐ सो अत्र रूपाणि सन्ति आवश्यकं चेत् अत्र पश्य
इति पुनः पुनः उक्त्वा ए इति ऐ इति भवति
ऐ भवति
ऐ ऐ इति
वृद्धि भवति
दीर्घ
नाट् बिकास् आफ् दट् नाट् बिकास् आफ् दट् इस् जस्ट् पाणिनिसूत्रम् एवम् अस्ति सो एवम् एवम् अस्ति समयः अतीतः सो विल् जस्ट् डू इट् क्विक्लि ऐच्छत् ऐच्छताम् ऐच्छन् ऐच्छः ऐच्छतम् इष् इष् धातु ऐ नो ऐ एम् जस्ट् सेयिङ्ग् द रूपम् इस् लैक् दिस् ऐ इट् बिकम्स् ऐ ऐच्छम् ऐच्छाव ऐच्छाम एव्रिवेर् इस् लैक् दिस् ओके नौ यूसिङ्ग् दिस् प्रिन्सिपल् वि गो फार् ईक्ष सो Gopika bagini. So instead of Aikshe.
Aikshe. Aiksha vahi. Aikshva mahi. Anyani api vava.
No, Aiksha vahi. Astu. वहि ऐक्षामहि अस्तु उत्तमपुरुष कथं कथं भवति
पुरुषः एव
अस्तु अस्तु प्रथमपुरुषः
ऐक्षत ऐक्षेताम् ऐक्षन्त
ऐक्षन्त सम्यक् मध्यम
ऐक्ष्वत् ऐक्ष्वथाः ऐक्ष्वे
ऐक्ष एव ऐक्षताः
ऐक्षथाः ऐक्षेथाम् ऐक्ष्वध्वम्
ऐक्षध्वम् इति भवति अस्तु सो वि कम्प्लीटेड् लङ्लकार इदानीं स्म इति बहु सुलभः एव अस्तु अम्ब पठति वा एतत् सम्भाषणम् उच्चैः पठत अवगच्छत च
पितामहे अहं एकां कथाम् अश्रवयम्
अश्रावयम्
अश्रावयं स्मरसि किं बालक आं स्मरामि तर्हि वद कः कः किं किं करोति स्म
धन्यवादः अम्ब धन्यवादः अम्ब सो अत्र अश्रावयम् इति कीदृशरूपं लङ्लकाररूपं धातु किं सो अत्र णिच् धातु खलु श्रावयम् अश्रावयति इट्स् नाट् यू धातु श्रावयति अहम् 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 इति अस्ति अतः उत्तमपुरुष एकवचनम् उत्तमपुरुष एकवचनम् अस्ति सो इदानीं स्म प्रति गच्छामः कः कः किं किं स्मरोति करोति स्म उपयोगं कुर्मः चेत् लट्लकारः एव केवलं लट्लकाररूपम् अनन्तरं स्म इति योजयामः सो अत्र स्म इति अस्ति चेत् सन्दर्भद्वयम् अस्ति साधारणतया वयं यदा तदा उपयुज्य सन्दर्भं कल्पयामः ह्यः कथाम् अहम् उक्तवान् भवान् श्रुतवान् इति अर्थे अहं श्रावयम् अश्रावयं दट् मीन्स् ऐ मेड् यू लिसन् इति निच् प्रयोगः अत्र निच् इस् लैक् करोति कारयति ऐ एम् डूयिङ्ग् संथिङ्ग् अहं करोमि अहं कारयामि मीन्स् ऐ एम् मेकिङ्ग् यू डू संथिङ्ग् निच् सो अहं भवतीं श्रावयामि दट् मीन्स् ऐ मेड् यू लिसन् लैक् दट् अहं शृणोमि ऐ लिसन् अहं श्रावयामि ऐ मेड् यू लिसन् सो दिस् इस् वाट् ऐ मेड् यू लिसन् यस्टर्डे इन् अ स्टोरि इन् दट् स्टोरि वाट् डिड् पीपल् डु सो ऐ अस्तु अग्रे जयश्री भगिनि कथां पठित्वा गच्छामः
आं भगिनि बालकः सञ्जयः श्रावयति स्म धृतराष्ट्रः शृणोति स्म अर्जुनः दुःखम् अनुभवति स्म कृष्णः बोधयति स्म पितामही सम्यक् कृष्णः किं करोति स्म बालकः
लता भगिनी अग्रे अन्तिम
आं भगिनि
बालकः कृष्णः पाण्डवानां मार्गदर्शनं करोति स्म, सर्वेषु उत्साहं पूरयति स्म, अश्वानां परिचरणं करोति स्म, सर्वान् युद्धनीतिं बोधयति स्म, रथं चालयति स्म, अर्जुनस्य रक्षणं कुरुते स्म.
अत्र सर्वत्र धन्यवादः भगिनि. सर्वत्र लट्लकारः एव. सो अत्र पश्यन्तु, सञ्जयः श्रावयति स्म. श्रावयति मीन्स् इस् मेकिङ्ग्, सो हि दट् इस् स्पीकिङ्ग्, इस् मेकिङ्ग् सम्बडि, दिस् इस् निच्. श्रावयति इस् मेकिङ्ग् सम्बडि लिसन्. धृतराष्ट्रः शृणोति, हि इस् आक्टिव्लि डूयिङ्ग् इट्, inspired by Sanjay. Shravayati sma, shunoti sma, anubhavati sma, so everything sma sma. So atra pashyatu latlakara, sarvatra latlakara eva. Astu samayaha abhavat, agre pashyamaha punarekavaram katam katam patitva arambha kurmaha agrima varke. Idanim shanti mantra muktva samapayamaha. Dhanyavada. ॐ सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत्. ॐ शान्ति शान्ति शान्तिः. हरिः ॐ श्रीगुरुभ्यो नमः. हरिः ॐ. धन्यवादः लङ्लक.
धन्यवादः भगिनि.
धन्यवादः.